ऊर्ध्वभूषुणो अध्वरस्य होतरग्ने तिष्ठा देवता ताजदीयान् त्वम् हि विश्वमभ्यसिमन्वप्रभेदसश्चित्तिरसि मनीषाम् अमूरोहोतान्यसादिभिक्ष्मा अग्निर्मन्त्रो विदधेषु प्रचेताः ऊर्ध्वम् भानम् स विदेवासेन्मेदेव धूमंस्त भाजतु पद्याम् यदा सूचूर्णीरातिनी धृताची प्रदक्षिणिदेवतादिमुराणः उदस्वनुर्नभजानाक्रः पश्वो अनक्तिसुधीतः सुमेकाः स्तीर्णे भरिषि समिधाने अग्ना सूध्वोऽध्वर्युर्जोजुषाणो स्तात् पर्यग्निः पशुपानहोता त्रिभिष्ट्ये प्रतिवपुराणः परेत्मनाः मितद्रूरे दिहोताग्निर्मन्द्रो मधुपचारुता वा द्रवङ्गस्य वाजिनो न शोकाभयम् ते विश्वाभुवनायदभ्राट् भद्राते अग्ने त्वनैव सन्दृघोरस्य सतो विषूणस्य चारुः न यत्ते शोचिस्तमसावरणम् तनध्वस्मानस्तन्वीरे बाधुः न यस्य साधुर्जनीतो न वारिणमातराः पितरानुचि दृष्टौ अथा मित्रो न सुधीकः पापभोग्निर्दीलायमानुषीषु भिक्षु निर्जम् पञ्चदीजनान् समवसा नाश्वसारो अग्निम् मानुषीषु भिक्षु उषर्बुधमसर्जो ओनदन्तम् शुक्रम् श्वासम् परसन्न दिग्मम् तवत्ये अग्ने हरितो घृतस्नारोहीतास ऋज्वम् च स्वञ्चाः अरुषासो वृषनरजमुष्काः देवतादिमह्वन्तदस्माः ये हत्ये ते सहमाना अजासस्वेणासो अग्ने अर्चयश्चरन्ति श्येनासो न दूपसनासो अर्थम् विश्वनसो मारुतम् न श्रद्धाः अकारिब्रह्म सविधानतुभ्यम् संसात्युक्थम् यजते व्यूधाः होदारमग्निम् मनुषो निषेदुर्नमस्यन्त भुषिजः संसमायोः